यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनदीरूपं दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं देवगणौ सुपूजितं विप्रहस्तुतं मानवमुक्तिकोविदं तं देवदेवं प्रणमामि भर्ग पूनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं ज्ञानघनत्वगम्यम् त्रैलोक्यपूज्यं त्रिगुणात्मरूपं समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं गूढयति प्रबोधं धर्मस्य वृद्धिं कुरु ते जनाना तत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं व्याधिविनाशदक्ष यद्रग्यजुसामसुसम्प्रगीतं प्रकाशितं येन च भूर्भुवस्व पुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्गः यद्योगिनो योगजुषाञ्च सङ्गः पुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिहमर्त्यलोके यत्कालकालादिमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं विष्णुचतुर्मुखास्यं यदक्षरं पापहरं जनाना यत्कालकल्पक्षयकारणं पुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं विश्वसृजं प्रसीतम् उत्पत्तिरक्षाप्रलयप्रगल्भं यस्मिन् जगत् संहरतेखिलं च पुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं सर्वगतस्य विष्णुः आत्मा परं धाम विशुद्धतत्त्वं सूक्ष्मान्तरयोगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं ब्रह्मविदो वदन्ति गायन्ति यच्चारण सिद्ध संगा यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम्
यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथा